इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। भारत ब्राजील देशौ अग्रिमेषु पञ्चवर्षेषु द्वैपाक्षिक सम्बन्धान् 20 बिलियन यूएस डॉलर तः अधिकाः संवर्धयितुं सहमतौ अभवताम्। प्रधानमन्त्री नरेन्द्र मोदी ब्राजील देशस्य राष्ट्रपतिः लुइस इनासियो लुला डा सिल्वा च राष्ट्रिय राजधान्यां द्वैपाक्षिकं वार्तालापं कृतवन्तौ। गृहमन्त्री अमितशाहः अवदत् यत् आगामिमासस्य 31 दिनांकपर्यन्तं देशात् नक्सलवादस्य उन्मूलनं भविष्यति। श्रीशाहः पूर्वोत्तरक्षेत्रे जम्मूकश्मीरे च शान्तिं स्थापयितुं CRPF इत्यस्य भूमिकाम् अपि प्रशंसितवान्। गोवासमुद्रीयसम्मेलनस्य पञ्चमं संस्करणम् अद्य गोवायां समाप्तम्। हिन्दमहासागरक्षेत्रे उद्भूतानां समुद्रीयसमाह्वानान् परिहर्तुं चर्चा भवत्। अमेरिकादेशस्य राष्ट्रपतेः डोनाल्ड ट्रम्पवर्यस्य नूतन वैश्विकशुल्कस्य घोषणायां सर्वोच्चन्यायालयस्य घोषणायाः अनन्तरं भारतस्य शुल्कम् अस्थायिरूपेण 10% यावत् न्यूनं भविष्यति इति। अपि च ICC 20-20 विश्वचषक क्रीडायां सुपर 8 इति शीर्षाष्ट इत्यस्य आरम्भिके द्वन्द्वे न्यूजीलैंड दलम् अद्य सायंकाले कोलंबो नगरे पाकिस्तान दलं सम्मुखी करिष्यति। अथ वार्ताः विस्तरेण। अद्य नवदिल्ल्यां भारत ब्राजील देशौ डिजिटल सहभागित्वं दुर्लभ भूरत्नानां च सहकारः MSME तटीय क्षेत्रम् इत्यादीनां विभिन्नेषु क्षेत्रेषु सन्धेः आदान प्रदानं कृतवन्तौ। प्रधानमन्त्री नरेन्द्र मोदी ब्राजील देशस्य राष्ट्रपतिः लुइस इनासियो लुला दा सिल्वा च राष्ट्रिय राजधान्यां द्वैपाक्षिकं वार्तालापं कृतवन्तौ। उपवेशने तौ द्वैपाक्षिक सम्बन्धानां सम्पूर्णं विस्तारं समीक्षितवन्तौ। उभयोः मध्ये बहुपक्षीय मञ्चेषु सहकारः, बहुपक्षवादस्य परिष्कारः, वैश्विक शासनं, वैश्विक दक्षिण सम्बन्ध विषयाः इत्यादीनां परस्पर हितानां क्षेत्रीय वैश्विक विषयेषु अपि विचाराणाम् आदान प्रदानं कृतवन्तौ। संयुक्त वक्तव्ये प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तं यत् राष्ट्रपतेः लुला डा सिल्वा वर्यस्य नेतृत्वे भारत ब्राजील देशयोः सम्बन्धः सुदृढः अभवदिति।
ब्राजील लेटिन अमेरिका में भारत का सबसे बड़ा ट्रेड पार्टनर है। हम आने वाले 5 वर्षों में द्विपक्षीय व्यापार को 20 बिलियन डॉलर के भी आगे ले जाने के लिए प्रतिबद्ध है। हमारा व्यापार केवल आंकड़ा नहीं, विश्वास का प्रतिबिंब है। राष्ट्रपति जी के साथ आया बड़ा बिजनेस डेलीगेशन इसी विश्वास को दिखाता है। भारत मर्कोसुर ट्रेड समझौते के विस्तार से हमारा आर्थिक सहयोग और सुदृढ़ होगा।
सः अवदत् यत् अग्रिमेषु पञ्चवर्षेषु द्वैपाक्षिक व्यापार सम्बन्धाः 20 बिलियन यूएस डॉलर तः अधिकाः भविष्यन्ति। ततः पूर्वं राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्र मोदी च राष्ट्रपतिभवनस्य प्रांगणे राष्ट्रपतेः लुला डा सिल्वा वर्यस्य औपचारिकं स्वागतं कृतवन्तौ। ब्राजील देशस्य राष्ट्रपतिः राजघट्टे अपि गत्वा महात्मा गांधीवर्यं श्रद्धाञ्जलिं समर्पितवान्। गृहमन्त्रिणा अमितशाहेन अद्य कामरूप मेट्रो मण्डलस्य कचु टोली नगरे 10 असम आरक्षि बटालियन इत्यस्य नूतनस्य परिसरस्य शिलान्यासं कृतम्। परियोजनायाः कुलव्ययः प्रायः 250 कोटिरूप्यकाणि अस्ति। अस्मिन् अवसरे जनसभां सम्बोधयन् केन्द्रीयः मन्त्री अवदत् यत् राज्ये भाजपा सुशासनस्य 10 वर्षेषु विधिव्यवस्थायाः स्थितिः सुदृढाभवत्। बृहती औद्योगिक संस्थाः अधुना असमराज्यं प्रति प्रवृत्ताः सन्ति। पूर्वं दिने केन्द्रीय गृहमन्त्री गुवाहाटीनगरे CRPF इत्यस्य 87वें स्थापना दिवसस्य पथसञ्चलने भागम् अभजत्। अस्मिन् अवसरे श्रीशाहः अवदत् यत् आगामिमासस्य 31 दिनांकपर्यन्तं देशात् नक्सलवादस्य उन्मूलनं कर्तुं राष्ट्रं प्रतिज्ञां कृतवान् अस्ति। सः अवदत् यत् CRPF सैनिकाः कोबरा बटालियन इत्येतौ च देशं नक्सल मुक्तं कर्तुम् अभूतपूर्वं कार्यं कुर्वन्तौ स्तः। सः अवदत् यत् 70+200 यावत् वीर सैनिकाः देशस्य सेवायां स्वप्राणान् समर्पितवन्तः। सः अवदत् यत् अस्य बलस्य 700 यावत् कर्मचारिणः केवलं उत्तर पूर्व भारते एव स्वप्राणान् त्यक्तवन्तः। सः CRPF सैनिकानाम् असाधारणस्य साहसस्य सम्मानं कृत्वा शौर्यपदकमपि प्रदत्तवान्। अस्मिन् अवसरे असमराज्यस्य मुख्यमन्त्री हिमन्ता बिश्वा सरमा अपि उपस्थितः आसीत्। श्रीशाहः पूर्वोत्तरक्षेत्रे जम्मूकश्मीरे च शान्तिं स्थापयितुं CRPF इत्यस्य भूमिकाम् अपि प्रशंसितवान्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। नौसेनाध्यक्षेण एडमिरल दिनेश के त्रिपाठिना अद्य गोवा समुद्रीय सम्मेलनस्य पंचमं संस्करणम् उद्घाटयन् समुद्रीय सहयोगस्य महत्वं प्रतिपादितम्। प्रतिनिधि समूहं संबोधयन् नौसेना प्रमुखः सद्यः एव विशाखापत्तनम् इत्यत्र अन्ताराष्ट्रिय नौसेनायाः समीक्षार्थं 74 समागमं तथा च मिलन इत्यस्य नौकाश्रयस्य समुद्रस्य च समुद्रीयः महाकुम्भः इति वर्णितवान्। सः अवदत् यत् बृहदस्तरे सहभागिता वर्धमानं वैश्विक समुद्रीय सहभागित्वं प्रतिबिम्बयति। शुल्कस्य विषये अमेरिका देशस्य सर्वोच्च न्यायालयस्य निर्णयस्य परिप्रेक्ष्ये अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः अवदत् यत् भारतेन सह व्यापार व्यवहारे किमपि परिवर्तितं नास्ति तथा च भारतेन सह व्यवहारः प्रचलति इति अवधानं दत्तवान्। सः अवदत् यत् भारतेन सह तस्य सम्बन्धः अद्भुतः अस्ति, ते भारतेन सह व्यापारं कुर्वन्तः सन्ति। राष्ट्रपतिः ट्रम्पः गतरात्रौ व्हाइट हाउस मध्ये वार्ताहरसम्मेलने इदमुक्तवान्। यदा अमेरिकादेशस्य सर्वोच्च न्यायालयेन तस्य व्यापक शुल्कस्य निराकरणस्य निर्णयः कृतः, अमेरिकादेशस्य राष्ट्रपतेः डोनाल्ड ट्रम्पवर्यस्य नूतन वैश्विक शुल्कस्य घोषणायाः अनन्तरम् अधुना भारतस्य शुल्कम् अस्थायिरूपेण 10% यावत् न्यूनं भविष्यति इति व्हाइट हाउस अधिकारिणः स्पष्टीकृतवन्तः। ऐषमः 26+2000 इण्डिया AI इम्पैक्ट शिखरसम्मेलनेन AI प्रभाव विषये नवदिल्ली घोषणाम् अंगीकृतम्, यत् आर्टिफिशियल इंटेलिजेंस इति वैश्विक सहयोगस्य महत्वपूर्णं सोपानमस्ति। आर्थिकवृद्धेः सामाजिक कल्याणस्य च कृते AI इत्यस्य उपयोगस्य विषये विस्तृत आधारित वैश्विक सर्वसम्मतिं प्रतिबिम्बयन् आहत्य 88 देशैः अन्ताराष्ट्रिय संघटनैः च एषा घोषणा अनुमोदितास्ति। ह्यः समाप्ते शिखरसम्मेलने सम्पूर्णस्य जगतः व्यापकरूपेण सहभागिता दृष्टा। सर्वजनहिताय सर्वजनसुखाय इत्यनेन सिद्धान्तेन AI इत्यस्य लाभाः मानवेषु समानरूपेण वितरणीयमिति। ह्यः नवदिल्ल्याम् इण्डिया AI इम्पैक्ट शिखरसम्मेलने भारतीय युव कांग्रेस दलस्य कतिपयैः कार्यकर्तृभिः कृतस्य विरोध प्रदर्शनस्य विषये भाजपेति दलेन अद्य कांग्रेस दलस्य निन्दा कृता। नवदिल्ल्यां वार्ताहर सम्मेलनं सम्बोधयन् केन्द्रीयमन्त्री किरेन रिजिजू वर्यः युव कांग्रेस कार्यकर्तॄणां कृत्यस्य निन्दाम अकरोत् यत् एतत् राष्ट्रस्य विरुद्धम् अपराधः अस्ति, एतत् दोषं नास्ति। सः आरोपितवान् यत् कांग्रेस दलं भारतस्य समृद्धिं प्रगतिं च नशयितुं शक्नोति। ICC 20x20 विश्व चषक क्रीडायाम् अद्य शीर्षाष्ट चरणस्य आरम्भः भविष्यति। सुपर 8 इति शीर्षाष्ट इत्यस्य आरम्भिके द्वन्द्वे न्यूजीलैंड दलम् अद्य सायंकाले कोलंबो नगरे पाकिस्तान दलं सम्मुखीकरिष्यति। भारतीय समयानुसारं सायं 7 वादने स्पर्धायाः आरम्भः भविष्यति इति वार्ताः।